एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा। निर्वाचन आयोगेन गतस्य फाल्गुन मासस्य एकविंशे दिवसे सम्पन्नस्य प्रतिनिधि सभायाः सदस्यानां निर्वाचनस्य अन्तिम परिणामेन सहितं समग्रं निर्वाचन प्रतिवेदनं राष्ट्रपतये रामचन्द्र पौडेलाय समर्पितमस्ति। ह्य राष्ट्रपति कार्यालये शीतल निवासे आयोजिते एकस्मिन् समारोहे कार्यवाहक प्रमुख निर्वाचन आयुक्तः रामप्रसाद भण्डारी निर्वाचनस्य अन्तिम परिणामेन सहितं प्रतिवेदनं राष्ट्रपतये पौडेलाय समर्पितवान्। निर्वाचन प्रतिवेदनं स्वीकुर्वन् राष्ट्रपतिः पौडेलः अवदत् लोकतन्त्रस्य रक्षायै सुदृढाय च निर्वाचनं महत्वपूर्णं भवति। तदवसरे राष्ट्रपतिना पौडेलेन प्रतिकूलावस्थायामपि शान्तिपूर्णरूपेण निर्वाचनं सम्पाद्य देशस्य लोकतन्त्रस्य संविधानस्य च रक्षा विहितेति हेतुः निर्वाचन आयोगाय सम्बद्धकर्मकरेभ्यः सुरक्षानिकायेभ्यः राजनीतिकदलेभ्यः मतदातृभ्यश्च धन्यवादः प्रकटितः। निर्वाचन आयोगेन गत फाल्गुन मासस्य एकविंशे दिवसे सम्पन्ने प्रतिनिधि सभा सदस्यानां निर्वाचने समानुपातिक निर्वाचन प्रणाल्याः पक्षतः निर्वाचितेभ्य दशोत्तरैकशत संख्यातेभ्य सांसदेभ्य प्रमाणपत्राणि प्रदत्तानि सन्ति। निर्वाचन आयोगेन ह्य आयोगस्य केन्द्रीय कार्यालये आयोजिते कार्यक्रमे कार्यवाहक प्रमुख निर्वाचन आयुक्तः रामप्रसाद भण्डारी, आयुक्त डाक्टर जानकी कुमारी तुलाधरः, सगुन शमशेर जवराज एतेषां स्वागतं विहितवन्तः। आयोगस्य सचिवेन समानुपातिक प्रणाल्याः निर्वाचनाधिकृतेन कृष्णबहादुर राउत इत्यनेन सह सांसदेभ्यः प्रमाणपत्राणि प्रदत्तानि आसन्। ततः पूर्वं गत रविवासरे प्राप्त राष्ट्रिय मान्यता हि सर्वैरेव दलैः स्वस्वदलस्य पक्षतः निर्वाचितानां सदस्यानां नामानि आयोगे प्रस्तुतानि आसन्। निर्वाचने न्यूनातिन्यूनं प्रतिशतं त्रीणि मतानि लब्धवत्सु दलेषु राष्ट्रिय स्वतन्त्र दलेन, नेपाली कांग्रेस दलेन, नेकपा एमाले दलेन, नेपाली कम्युनिष्ट दलेन, श्रम संस्कृति दलेन, राष्ट्रिय प्रजातन्त्र दलेन सह प्रत्याशीनां नामावली प्रस्तुता आसीत्। कार्यवाहक प्रमुख निर्वाचन आयुक्तेन रामप्रसाद भण्डारिणा अनेकान् समाहोयान् प्रतिकूलावस्थाश्च अतिक्रम्य प्रतिनिधि सभायाः सदस्यानां निर्वाचनं सम्पन्नमस्तीति उक्तं वर्तते। ह्य समानुपातिक प्रणाल्या निर्वाचितेभ्य प्रतिनिधिसभा सदस्येभ्य प्रमाणपत्राणां वितरणाय आयोजितं कार्यक्रमं सम्बोधयन् कार्यवाहक प्रमुख निर्वाचन आयुक्त भण्डारी निर्वाचनं सम्पादनीयमेवेति आयोगस्य दृढतायाः कारणेनैव निर्वाचनं सम्पन्नमस्ति, एतदर्थं राजनीतिक दलेभ्य, नागरिक समाजात्, संचार साधनेभ्य, प्रबुद्धजनेभ्यश्च सहयोग प्राप्त इति अवदत्। तदवसरे कार्यवाहक प्रमुख निर्वाचन आयुक्त भण्डारी विभिन्नानां राजनीतिक दलानां प्रत्याशिभिः स्वतन्त्र प्रत्याशिभिश्च निर्भयेन निर्वाचने भागः गृहीतः इत्यतोऽपि निर्वाचनं स्वच्छे निष्पक्षे भयरहिते च वातावरणे सम्पन्नमिति विचारं प्राकटयत्। एवमेव निर्वाचने आचार संहितायाः उल्लङ्घनस्य कारणेनैव कस्मै अपि कठोर दण्डनं न विहितमिति च आयोगेन ज्ञापितमस्ति। प्रतिनिधिसभायाः नवनिर्वाचितानां सदस्यानां शपथग्रहणम् अस्यैव चैत्र मासस्य आगामिनि द्वादश दिवसे भवितेति संघीय संसद सचिवालयेन ज्ञापितम् वर्तते। शपथग्रहणात् पूर्वं नवनिर्वाचितेषु सदस्येषु मध्ये वयसा ज्येष्ठतमस्य सदस्यस्य निश्चयनं करिष्यते, तेन च ज्येष्ठ सदस्येन राष्ट्रपतेः रामचन्द्र पौडेलस्य समक्षं प्रतिनिधिसभा सदस्य पदस्य पदगोपनीयतयोः शपथः ग्रहीष्यते। तदनु असौ अन्यान् अवशिष्टान् चतुस्सप्तत्युत्तर शतद्वय संख्यकान् सदस्यान् शपथं ग्राहीष्यतीति संघीय संसद सचिवालयस्य प्रवक्ता एकराम गिरी असूचयत्। अत्रान्तरे निर्वाचनस्य अन्तिम परिणामस्य घोषणया सहैव नूतन सर्वकार संघटनस्य कार्याय मार्गः प्रशस्तीभूतोऽस्ति। इतः परं राष्ट्रपतिः रामचन्द्र पौडेलः नूतन सर्वकार संघटनाय प्रक्रियां प्रारभते। प्रधानमन्त्रिणा सुशीला कार्किणा प्रतिनिधिसभा सदस्यानां निर्वाचनं शान्तिपूर्णं सफलं च विधातुं विहितस्य सद्भावस्य सहकार्यस्य च कृते विशेष धन्यवादः अभिव्यक्तोऽस्ति। गत फाल्गुन मासस्य एकविंशे दिवसे सम्पन्नं निर्वाचनं सफलीकर्तुं भूमिकां निर्व्यूढवद्भ्यः कर्मकरेभ्यः सुरक्षाकर्मिभ्यः नागरिकेभ्यश्च धन्यवादं ज्ञापयितुं ह्य कर्णाली प्रदेशस्य भ्रमणे गतया प्रधानमन्त्रिणा कार्किणा सीमितानां श्रोतसां साधनानां च उपलब्धौ काठिन्यायाः भौगोलिक्याः स्थितेश्च अवस्थायामपि प्रभावकारी समन्वयं विधाय प्रतिबद्धतया च निर्वाचनं सफलीकृतमिति हेतुः कर्णाली प्रदेशस्य सुरक्षा निकायानां कर्मकराणाञ्च प्रशंसां विधाय तेभ्यः धन्यवादः प्रकटितः अस्तीति प्रधानमन्त्रिणः नैज सचिवालयेन ज्ञापितम् वर्तते। अद्य श्वस्य कोशी लुम्बिनी कर्णाली सुदूरपश्चिम प्रदेशेष् अधिक वृष्टि झंझावातस्य हिमपातस्य च संभावना अस्ति त्यतः सावधानताम् अवलम्बितुं राष्ट्रिय विपद संकट न्यूनीकरण व्यवस्थापन प्राधिकरणेन सर्वे अनुरुद्धा वर्तन्ते। प्राधिकरणेन ह्यो विज्ञप्तिं प्रकाश्य संकट न्यूनीकरणाय सावधानाः भवितुं सर्वे अनुरुद्धा सन्ति। एवमेव जलवातावरण विज्ञान विभागेन अद्य श्वस्य कर्णाली सुदूरपश्चिम प्रदेशयोः पर्वतीय भूभागेषु हिमालय क्षेत्रेषु च अधिक वृष्टेः हिमपातस्य च सम्भावना दर्शिता अस्ति। सहैव दाङ नेपालगंज स्थानयोः लुम्बिनी प्रदेशस्य तराई क्षेत्रेषु च तीव्रगत्या झंझावातस्य च अनुमानं विभागेन विहितमस्ति। विभागेन श्व शनिश्चरवासरं यावत् विराटनगर धनकुटा धरान स्थानानां सन्निकटस्थ जनपदेषु प्रतिघण्टाम् एकोनविंशत्यधिकैकशत किलोमीटर मित तीव्रगत्या वायोः संचलनस्य च सम्भावना अस्ति। झंझावातस्य कारणेन वृक्षादि पतनस्य दुर्बल संरचनायाः भञ्जनस्य विद्युत् संचार सेवायां प्रभावोत्पन्नस्य च सम्भावना अस्तीति ज्ञापितं वर्तते। नेपाली कांग्रेस दलस्य सभापतिना गगन कुमार थापाभिधेन त्यागपत्रं प्रदत्तं वर्तते। सभापतिना थापाभिधेन परह्य पदात्यागपत्रं प्रदत्तम् अस्तीति दल कार्यालयेन ज्ञापितं वर्तते। अत्रान्तरे नेपाली कांग्रेस दलेन केन्द्रीय कार्यसमितेः उपवेशः अद्य शुक्रवासराय आहूतो वर्तते। राष्ट्रिय प्रजातन्त्र दलेन दलस्य प्रवक्ता ज्ञान बहादुर शाही संसदीय दलस्य नेत्री पदे सर्वसम्मत रूपेण प्रचितो वर्तते। नवनिर्वाचित प्रतिनिधिसभा सदस्यानां ह्यस्तन उपवेशेन शाही इत्यमुं संसदीय दलस्य नेत्री पदे सर्वसम्मत रूपेण प्रचेतुं निर्णीतम् अस्तीति दलस्य महामन्त्री राजेन्द्र गुरूङ असूचयत्।